इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। इदानीं वार्ताः। लोकसभा निर्वाचनस्य शेषयोः चरणयोः प्रचारः पूर्णगत्या प्रचलति, येन कारणेन शीर्षनेतृभिः सम्भाव्यमानेषु नैर्वाचनिक राज्येषु विशालजनसभाः आयोज्यन्ते। प्रधानमन्त्री अपि च वरिष्ठो भाजपा नेता नरेन्द्रमोदी उक्तवान् यत् इंडी इति संयुति विरोधी महिला विरोधिनी अस्ति इति, अपि च तद्दलं महिला आरक्षणस्य विरोधमपि करोति। स्वीय संसदीय क्षेत्रे वाराणसी नगरे केवल महिला समागमं सम्बोधयन् प्रधानमन्त्री अवदत् यत् समाजवादी पार्टी कांग्रेस दलयोः शासनकाले महिलाः सुरक्षिताः न आसन्, परन्तु अधुना उत्तरप्रदेशे योगी आदित्यनाथस्य मुख्यमन्त्री नेतृत्वे महिलाः प्रबलतया सुरक्षिताः च सन्ति इति। सम्पूर्णानन्द संस्कृत विश्वविद्यालये आयोजिते मातृशक्ति सम्मेलनावधौ श्रीमोदी उक्तवान् यत् गतेषु षष्टिवर्षेष् महिलानां विषयः केनापि सर्वकारेण न चिन्तितः। इतः पूर्वं प्रयागराजनगरे राजनैतिक सभां सम्बोधयन् श्रीमोदी बीएसपी समाजवादी दलयोः आरोपं साधयन् प्रावोचत् यत् एतानि दलानि आपराधिक तत्वान् आश्रयं ददति। प्रधानमन्त्री प्रयागराज क्षेत्रात् नीरज त्रिपाठिने फूलपुर क्षेत्राच्च प्रवीण पटेलाय प्रचारं विहितवान्। प्रधानमन्त्रिणः ह्यः रात्रौ वाराणसी नगरे एव स्थितवान्। अद्य असौ उत्तरप्रदेशे इतोपि द्वे जनसभे सम्बोधयिष्यति। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बलरामपुर सिद्धार्थनगर संतकबीरनगर बस्ती आजमगढ़ जनपदेष् जनसभानाम् अभिसम्बोधनं कृतवान्। समाजवादी पार्टी प्रमुखः अखिलेश यादवः भदोही नगरे टीएमसी प्रत्याशिनः ललितेश त्रिपाठिनः समर्थने राजनैतिक सभां समबोधयत्। असौ अकथयत् यद् भाजपेति दलं निर्वाचने चत्वारिंशदधिकैकशतमपि आसनानि न प्राप्स्यति इति। कांग्रेसदलाध्यक्षः मल्लिकार्जुन खरगेः अपि चण्डीगढ़नगरे वार्ताहरान् सम्बोधयत्। राष्ट्रिय राजधान्याम् अद्य नैर्वाचनिक प्रचाराभियानानि द्रुतगतिं प्राप्स्यन्ति। सर्वेषां राजनीतिक दलानां विशिष्टनेतारः अद्य राजधान्यां प्रचारं विधास्यन्ति। सम्प्रति सम्भाव्यमानाय निर्वाचनाय दिनत्रयमेव अवशिष्टं वर्तते। विजयं सुनिश्चेतुं प्रत्याशिनः नैरन्तर्येण दिल्ल्याः विभिन्नेष् भागेष् जनसभाः कुर्वन्ति। प्रचाराभियाने संलग्नेष् नेतृष् प्रधानमन्त्री नरेन्द्रमोदी कांग्रेसदलाध्यक्षः मल्लिकार्जुन खरगेः चापि दिल्ल्यां नैर्वाचनिक जनसभाः सम्बोधयिष्यतः। श्रीमोदी भाजपादलीयस्य प्रत्याशिनः कवलजीत सहरावतस्य समर्थने द्वारकायाम् एकं सार्वजनिकोपवेशनं सम्बोधयिष्यति। तत्रैव कांग्रेसदलाध्यक्षः मल्लिकार्जुन खरगेः भलस्वा डेयरी इत्यत्र एकस्मिन् सार्वजनिक जनसमूहे भागं ग्रहीष्यति। श्रीखरगे दलप्रत्याशिनः उदितराजस्य पक्षे जनसमूहं सम्बोधयिष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य इस्लामिक गणराज्यस्य ईरानदेशस्य यात्रां विधास्यति। स्वीय यात्रावधौ उपराष्ट्रपतिः मईमासस्य नवदश दिनांके एकस्यां जातायाम् उदग्रविमान दुर्घटनायाम् ईरानदेशीयस्य राष्ट्रपतिनः डॉ सैयद इब्राहिम रायसी इत्यस्य विदेशमन्त्रिणः डॉ होरनेन अमीर अब्दुल्लाहियनस्य अन्येषां च वरिष्ठाधिकारिणां दुःखपूर्णे निधने शोकं प्रकटयितुम् एकस्मिन् शोकसमारोहे भागं ग्रहीष्यति इति। वार्ताः।